श्रीमद्भागवत महापुराणम् नवमस्कन्धः अथैकादशोऽध्यायः हरे राम हरे राम 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 हरे 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 कृष्ण हरे कृष्ण 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 हरे हरे श्रीशुक उवाच भगवानात्मनात्मानं राम उत्तमकल्पकैः सर्वदेवमयं देव नीज आचार्यवान्मखैः हो अद्वर्यवी प्रतीचीं च उदीचीं सामगायसः आचार्याय ददौ शेषाय यावती भूस्तदन्तरा मन्यमान इदं कृत्स्नम् ब्राह्मणोऽर्हति निःस्पृहः इत्ययं तदलङ्कारवासोऽभ्यामवशेषितः तथा राज्ञपि वैदेही सौमङ्गल्यावशेषिता ते तु ब्राह्मण्यदेवस्य वात्सल्यं वीक्ष्य संस्तुतं प्रीताक्लिन्नधियस्तस्मै प्रत्यर्पीदं बभाषिरे अप्रत्तन्नस्त्वया किन्नु भगवन् भुवनेश्वर यन्नोऽन्तर्हृदयं विश्य तमो हंसे स्वरोचिषा नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्ग्रये कदाचिल्लोकजिज्ञासुर्गूढो रात्र्यामलक्षितः चरन् वाचो शृणोद्रामो भार्यामुद्दिश्य कस्यचित् नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगां स्त्रीलोभी बिभ्रूयात् सीतां रामो नाहं भजे पुनः इति लोकाद् बहुमुखाद् दुराराध्याद संविदः पत्या भीतेन सा त्यक्ता प्राप्ता प्राचीतसाश्रमम् अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ कुशोलवैतिख्यातौ तयोश्चक्रे क्रियामुनिः अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ तक्षःपुष्कलैत्यास्तां भरतस्य महीपते सुबाहुश्रुतसेनश्च शत्रुघ्नस्य बभूवतुः गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् तदीयं धनमानीय सर्वं रागीण्यवेदयत् शत्रुघ्नश्च मधो पुत्र लवणं नाम राक्षसम् हत्वा मधुवने चक्रे मथुरान्नाम वैपुरीं हरे राम 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 हरे हरे मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ध्यायन्ती रामचरणौ विवरं प्रविवेशः तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः स्मरंस्तस्या गुणांस्तांस्तान् नाशक्नो द्रोधुमीश्वरः स्त्रीपुं प्रसङ्गैतादृक् सर्वत्र त्रासमावहः अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः तत ऊर्ध्वं ब्रह्मचर्यं धारयन् न जुहोत्रभुः त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् स्मरतामृदि विन्यस्य विद्धन्दण्डककण्टकैः स्वपादपल्लवं रामात्मज्योतिरगाततः निदय्यशो रघुपते सुरयाच्ययात् लीलातनोरधिकसाम्य विमुक्तधाम्नः रक्षो वधो जलदिबन्धनमस्त्रभूगैः किं तस्य शत्रुहनने कपयसहायाः यस्यामलन्द्रुपसदस्सु यशोऽधुनापि गायन्त्यघग्नमृषयोदिगिभीन्द्रपट्टम् तन्नाकपालवसुपालकिरीटजुष्ट पादाम्बुजं रघुपतिं शरणम् प्रपदे स यैस्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा कोऽसलास्ते ययुस्थानै यत्र गच्छन्ति योगिनः पुरुषो रामचरितं श्रवणैरुपधारयन् आनृशंस्य परो राजन् कर्मबन्धैर्विमुच्यते राजोवाच कथं स भगवान् रामो भ्रातॄन् वा स्वयमात्मनः तस्मिन् वा तेन ववर्तन्त प्रजाः पौराश्चैश्वरे श्रीशुक उवाच अथादिशत् भ्रातॄं श्रीभुवनेश्वरा आत्मानं दर्शयन् स्वानां पुरीमयि क्षतसानुगः आसिक्तमार्गां गन्धोदयिक् करिणां मदशीकरैः स्वामिनं प्राप्तमालोक्य मत्तां वासुतरामिव प्रासादगोपुरसभा चैत्यदेवगृहादिषु विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम् पूगैः सवृन्तैरम्भाभिः पट्टिकाभिः सुवाससाम् आदर्शैरंशुकैस्रग्भिः कृतकौतुकतोरणाम् तमुपेयुस्तत्र तत्र पौरा अर्हणपाणयः आशिषो युयुजुर्देव पाहि मां प्राक्वयो धृताम् ततः प्रजावीक्ष्य पते चिरागतम् दिदृक्षयो सृष्टगृहास्त्रियो नराः आरुह्य हर्म्याण्य रविन्दलोचन मतृप्तनेत्राः कुसुमैरवाकिरन् अथ प्रविष्ट स्वगृहैः जुष्टं स्वैः पूर्वराजभिः अनन्ताखिल कोषाढ्य मनर्घ्योरुपरिच्छदम् विद्रुमो दुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभिः स्थलैर्मारकतैस्वच्छैर्भातस्फटिकभित्तिभिः चित्रस्रग्भिः पट्टिकाभिर्वासो मणिगणांशुकैः मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः धूपदीपैः सुरभिर्मण्डितं पुष्पमण्डनैः स्त्रीपुम्भिः सुरसङ्काशैर्जुष्टं भूषणभूषणैः तस्मिन् स भगवान् रामस्निग्धया प्रिययेष्टया रेमे स्वारामधीराणा मृषभक्सीतया किल बुभुजे च यथा कालं कामान् धर्ममपीडयन् वर्षपूगान् बहून्द्रूणा मभिध्याताङ्घ्रिपल्लव हरे राम राम हरे कृष्ण हरे कृष्ण 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 हरे हरे इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे श्रीरामोपाख्यानि एकादशोऽध्यायः ॐ सर्वं श्री सीता